इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः उत्तरप्रदेशस्य मेरठनगरस्य शताब्दी नगर नमो भारत मेट्रोस्थानके मेरठ मेट्रो नमो भारत रेलयानस्य च ध्वजप्रदर्शनपूर्वकम् उद्घाटनं कृतम्। प्रधानमन्त्रिणा द्व्यशीतिः किलोमीटर परिमितं देहली मेरठ नमो भारत मार्गं राष्ट्राय समर्पितम्। नमो भारत रीजनल रैपिड ट्रांजिट सिस्टम इति अशीत्यधिकैकशतं किलोमीटर प्रतिहोरायाः गत्या नमो भारत इति भारतस्य प्रथमा क्षेत्रीय द्रुत परिवहन व्यवस्था अस्ति, या साहिबाबाद गाजियाबाद मोदीनगर मेरठ इत्यादीनि प्रमुख नगर केन्द्राणि दिल्लीनगरेण सह द्रुतगत्या संयोजयति। अनेनैव सह प्रधानमन्त्री मेरठनगरे प्रायः 13,000 कोटिरूप्यकाणां विविध विकास परियोजनानां उद्घाटनं राष्ट्रार्पणञ्च कृतवान्। जनसमूहं सम्बोधयन् प्रधानमन्त्री मोदी अवदत् यत् उद्घाटिताः परियोजनाः विकसित उत्तरप्रदेशं विकसित भारतञ्च प्रणोदयन्तीति।
आज का ये कार्यक्रम भाजपा की डबल इंजन सरकार की कार्य संस्कृति को भी दर्शाता है। और हमारी कार्य संस्कृति क्या है? हमारी कार्य संस्कृति है कि जिस काम का शिलान्यास किया जाए उसे पूरा करने के लिए दिन रात एक कर दिया जाए। और इसलिए अब परियोजनाएं पहले की तरह लटकती भटकती नहीं है।
श्री मोदी ही अवदत् यत् उत्तर प्रदेशः विश्वस्तरीयस्य मूल सौकर्ययुतस्य नवयुगस्य साक्षी अस्ति इति। मन की बात इति कार्यक्रमे प्रधानमन्त्रिणा नरेन्द्रमोदिना अभिमानं प्रकटितं यत् इण्डिया एआई इम्पैक्ट समिटाख्यं सम्मेलनं भविष्ये संसारः एआई इत्यस्य शक्तिं कथं उपयोक्तुं शक्नोति इत्यस्य पथपरिवर्तनबिन्दुः अस्ति इति सिद्धम्। आकाशवाण्यां स्वस्य मन की बात इत्यस्मिन् कार्यक्रमे राष्ट्रम् अभिसम्बोधयन् प्रधानमन्त्री अवदत् यत् एआई इम्पैक्ट समिट इत्यस्मिन् नवदेहलीनगरस्य भारतमण्डपे अनेकदेशानां नेतारः उद्योगप्रमुखाः आविष्कर्तारः स्टार्टअप इति क्षेत्रेण सम्बद्धजनाश्च मिलितवन्तः। अग्रे तेनोक्तं यत् अद्य राष्ट्रपतिभवने राजाजी उत्सवः आचर्यते। अस्मिन् अवसरे राष्ट्रपतिभवनस्य केन्द्रीय प्रांगणे ब्रिटिश वास्तुकारस्य एडविन लुटियन्स इत्यस्य प्रतिमायाः स्थाने स्वतंत्र भारतस्य प्रथमः भारतीय गवर्नर जनरल सी राजगोपालाचारी इत्यस्य प्रतिमा स्थापयिष्यते। इज़राइल देशेन सह विश्वासेन नवान्वेषणेन शान्त्या प्रगत्या च निर्मिता चिरस्थायी मैत्री भारताय महत्वकरी अस्ति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। इज़राइल देशस्य प्रधानमन्त्री बेंजामिन नेतन्याहू इत्यस्य सामाजिक माध्यमे प्रसारित सन्देशस्य प्रतिक्रिया रूपेण श्रीमोदी अवदत् यत् सः भारत इज़राइल देशयोर्मध्ये दृढ़ सम्बन्धस्य विषये अपि च उभय देशयोर्मध्ये पाक्षिक सम्बन्धस्य विविध स्वरूपस्य विषये अपि तेन सहमति प्रकटिता अस्ति। अफगानिस्तान देशस्य भूभागे पाकिस्तानस्य वायु आक्रमणस्य भारतं दृढतया निन्दाम करोत्। यस्य परिणामेन पवित्र रमजान मासे महिलाभिः बालैश्च सह नागरिकाणां क्षतिः अभवत्। अस्मिन् विषये प्रसार माध्यमानां प्रश्नस्य प्रत्युत्तरे विदेश मन्त्रालयस्य प्रवक्ता रणधीर जयसवालः अवदत् यत् पाकिस्तानस्य आन्तरिक विफलतानां बाह्यरूपेण एषः अन्यः प्रयासः अस्ति इति। कौशल विकासस्य उद्यमशीलतायाः च राज्यमन्त्री जयन्त चौधरी स्किल इण्डिया डिजिटल हब इति माध्यमेन भारतस्य डिजिटल स्किलिंग आन्दोलनस्य गतिं वर्धयितुं बढ़ना है तो यहां जुड़ना है इति नाम्ना राष्ट्रव्यापिम् अभियानम् आरभत। आईसीसी इत्यस्य पुरुषाणां टी20 विश्व कप इति क्रीडायां गतरात्रौ अहमदाबाद नगरस्य नरेन्द्र मोदी क्रीडांगणे सुपर 8 इति अनन्तिम क्रीडाचक्रे दक्षिण अफ्रीका देशस्य विरुद्धं भारतं 67 धावनांकैः पराजितम् इति वार्ताः।